इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः दीपकः सोलंकी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य केरलं तमिलनाडुं च गमिष्यति। केरल राज्ये अद्य अपराह्ने प्रधानमन्त्री एर्नाकुलम नगरे प्रायशः 8,10,000 कोटि रूप्यकाणां बहुविध विकास परियोजनानां उद्घाटनं शिलान्यासं च करिष्यति। अस्मिन् कार्यक्रमे प्रधानमन्त्री मोदी एकं जनसम्मेलनम् अपि सम्बोधयिष्यति। तमिलनाडु राज्ये प्रधानमन्त्री तिरुचिरापल्ल्यां प्रायशः 6,55,000 कोटि रूप्यकाणां परियोजनानां उद्घाटनं करिष्यति। परियोजनानां पेट्रोलियम प्राकृतिक वायवेंधन आधारित अवसंरचना ग्रामीण संपर्क राजमार्ग विकास इत्यादीनि प्रमुखानि क्षेत्राणि अन्तर्भवन्ति। प्रधानमंत्री पंच नूतनानि रेलयान सेवायाः ध्वजारोहणं कृत्वा अस्मिन् अवसरे जनसमूहम् अपि संबोधयिष्यति। प्रधानमंत्री नरेन्द्र मोदिनः अध्यक्षतायां केन्द्रीय मंत्रिमण्डलेन जल जीवन मिशन इत्यस्य विस्ताराय 28,000 दिसम्बर मास पर्यन्तं प्रायशः 8,70,00,000 कोटि रूप्यकाणां वर्धित व्ययस्य अनुमति प्रदत्ता। नवदिल्ली नगरे वार्ताहरेण सह वार्तालापं कुर्वन् सूचना प्रसारण मन्त्री अश्विनी वैष्णव अवदत् यत् जल जीवन मिशन इत्यस्य अवसंरचना निर्माणात् सेवा वितरण पर्यन्तं कार्यान्वयनस्य पुनर्संरचनस्य पुनर्निर्धारणस्य च जलशक्ति मन्त्रालयस्य प्रस्तावं मन्त्रिमण्डलेन अनुमोदितम्। तेनोक्तं यत् केन्द्रीय मन्त्रिमण्डलेन देशेन सह स्थलसीमा सम्बद्धानां देशानां निवेशविषये दिशानिर्देशेषु परिवर्तनं स्वीकृतम्, येन वैश्विक निधिः स्टार्टअप तथा डीपटेक क्षेत्रेषु अधिकाधिकं विदेशीय निवेशः आकर्षितं करिष्यति इति। तमिलनाडु राज्यस्य मदुरै विमानस्थानकं अन्ताराष्ट्रिय विमानस्थानकत्वेन घोषयितुं प्रस्तावः अपि स्वीकृतम्। आर्थिक प्रकरणाय केन्द्रीय मन्त्रिमण्डल समितिः दिल्ली मुम्बई द्रुतमार्गस्य दिल्ली फरीदाबाद बल्लभगढ़ सोहना इत्यतः गम्यमानस्य उत्तरप्रदेशस्य गौतमबुद्ध मण्डलस्य जयवर अन्ताराष्ट्रिय विमानस्थानकं प्रति ग्रीनफील्ड मार्ग सम्पर्कस्य निर्माणाय 30,63,77,00,000 कोटि रूप्यकाणां संशोधितं कुलपूंजीव्ययम् अपि स्वीकृतवती। आगामिषु पश्चिम बंगाल विधानसभा निर्वाचनेषु सर्वे वैधानी मतदाताः मताधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति, परन्तु एकमपि अवैधं मतदातानामं मतदाता सूच्यां सम्मिलितं न भविष्यति। मुख्य निर्वाचन आयुक्तः ज्ञानेश कुमारः ह्यः कोलकाता नगरे वार्ताहरान् सम्बोधयन् एतद् उक्तवान्। निर्वाचनायोगस्य पूर्णपीठस्य द्विवार्षिक यात्रायाः अनन्तरं मुख्य निर्वाचन आयुक्तः वार्ताहरान् प्रति अवदत् यत् जनप्रतिनिधित्व अधिनियमेन 1950 इत्यनेन एव SAR इति प्रक्रिया कृता अस्ति। सर्वकारेण आश्वासनं प्रदत्तं यत् देशे गृहस्थ ग्राहकेभ्यः ऊर्जायाः अभावः नास्ति, चिन्तायाः कारणमपि नास्ति। सर्वकारेण उक्तं यत् देशस्य गृहस्थ ग्राहकेभ्यः सुलभ ऊर्जायाः अविरामपूर्तिं सुनिश्चेतुं प्रतिबद्धः अस्ति। सामाजिक संचार माध्यमेन पेट्रोलियम प्राकृतिक वायवेंधन मन्त्रिणः हरदीप सिंह पुरी वर्यः उल्लेखितवान् यत् भारतस्य ऊर्जा आयातः विभिन्न स्रोतः मार्गेभ्यः च निरन्तरम् आगच्छति इति। अत्रान्तरे तैल निगमाः देशे LPG उत्पादनं वर्धितवन्तः। गतदिवसे विदेशमन्त्री एस जयशंकरः ईरान देशस्य विदेशमन्त्री सैयद अब्बास अराग्ची इत्यनेन सह सायंकाले पश्चिमेशिया देशे वर्तमानस्य द्वन्द्वस्य नवीनतम विकास विषये विस्तृतं वार्तालापं कृतवान्। गतमासे ईरान अमेरिका इस्रेल संयुक्त सैन्यानां मध्ये द्वन्द्वस्य आरम्भात् परं एतेषां तृतीय दूरभाष वार्तालापम् आसीत्। डॉ जयशंकरः स्वस्य जर्मन समकक्षीयेन योहान वर्डेफुल इत्यनेन सह अपि वार्तालापं कृत्वा पश्चिमेशियायाः स्थितिं चर्चितवान् इति वार्ताः।